इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। फ्रांस देशस्य एवियन नगरम् अद्य आरभ्यमाणस्य 25वें G7 शिखर सम्मेलनस्य आयोजनाय सज्जः अस्ति। आल्पस पर्वत श्रेण्याः लेमनाख्य सरोवरस्य च मध्ये स्थितं सुरम्यं लेक्सेंड नगरं वैश्विक कूटनीतेः केन्द्ररूपेण परिवर्तितमस्ति, यत्र नेतारः प्रतिनिधयश्च त्रिदिवसीयेऽस्मिन् कार्यक्रमे आगच्छन्ति। फ्रांस देशस्य राष्ट्रपतिः इमैनुअल मैक्रों अद्य अपराह्णे अमेरिका, यूनाइटेड किंगडम, कनाडा, जर्मनी, इटली, जापान इत्यादीनां G7 राष्ट्राणां नेतृणां यूरोपीय परिषदः यूरोपीय आयोगस्य च अध्यक्षैः सह औपचारिकरूपेण स्वागतं करिष्यति। अयं शिखरसम्मेलनं तस्मिन् समये भवति यदा विश्वं भूराजनैतिक संकटैः आर्थिक अनिश्चिततया नूतन प्रौद्योगिकीनां द्रुतविकासेन च ग्रसितमस्ति। प्रधानमन्त्री नरेन्द्रमोदी श्वः आउटरीच इत्येतेषु सत्रेषु भागं ग्रहीष्यति। शिखरसम्मेलने भारतस्य सहभागित्वेन प्रमुख वैश्विक विषयेषु चर्चासु योगदानं कुर्वन् वैश्विक दक्षिणस्य प्राथमिकताः चिन्ताः च प्रकाशयितुम् अवसराः प्राप्यन्ते। प्रधानमन्त्रिणा नरेन्द्रमोदिना फ्रांस देशस्य राष्ट्रपतिना इमैनुअल मैक्रों इत्यनेन सह विस्तृत चर्चां विधाय भारत फ्रांस विशेष वैश्विक सामरिक सहभागित्वं सुदृढं कर्तुं चर्चासु भागम् अगृह्णन् फ्रांस देशस्य नीस नगरस्य स्वयात्रा समापिता। विदेशमन्त्रालयेन प्रधानमन्त्रिणः नरेन्द्रमोदिनः फ्रांस देशस्य यात्रायाः परिणामे विशेषसूचनाः प्रदत्ताः। सूचनायां विदेशसचिवः विक्रम मिश्री फ्रांस भारत नवान्वेषणस्य मार्गचित्रं 30-2000 इति अस्याः यात्रायाः प्रमुखं परिणामम् इति वर्णितवान्, यस्योद्देश्यं महत्वपूर्ण उदयोन्मुख प्रौद्योगिकीषु कृत्रिमबुद्धिमत्ता संशोधनेषु शैक्षणिक विनिमयेषु च सहयोगं सुदृढं कर्तुमस्ति। उत्तरप्रदेशस्य गौतमबुद्धनगरस्य जेवरनगरे स्थितात् नोएडा अन्ताराष्ट्रिय विमानस्थानकात् वाणिज्यविमानसेवाः अद्य आरभ्यन्ते। इण्डिगो एयरलाइन्स् संस्थया प्रथमं विमानं लखनऊतः प्रातः 5:07 प्रचालयिष्यते। नोएडा अन्ताराष्ट्रिय विमानस्थानके प्रातः 5:08 तद्विमानम् आगमिष्यति। तदनन्तरं नोएडा नगरात् बेंगलुरुनगरं प्रति प्रथमं नियमितं वाणिज्यिक विमानम् अपि प्रचलिष्यति। एकं विमानं लखनऊनगरं प्रति प्रस्थास्यति। जेवरस्य एमएलए धीरेन्द्रसिंहेन सह प्रथमे विमाने 20 महिलाभिः सह 270 यावत् कृषकाः भविष्यन्ति। एते कृषकाः ते सन्ति येषां भूमिः विमानस्थानकस्य कृते अधिगृहीता आसीत्। लखनऊनगरं प्राप्य एते कृषकाः मुख्यमन्त्रिणा योगी आदित्यनाथेन सह मिलित्वा कार्तज्ञतां प्रकटयिष्यन्ति। अद्य विश्ववायुदिवसः आचर्यते। पवनशक्तेः जलवायुपरिवर्तनं प्रतिरोधे तस्यां भूमिकां च प्रोत्साहनाय प्रतिवर्षं जूनमासस्य 15 अयं दिवसः आचर्यते। भारतम् अद्य गोवाराज्ये 26,000 वैश्विकवायुदिवससम्मेलनस्य आयोजनं करिष्यति। सम्मेलने सर्वकारेण नियामकैः विकासकैः निर्मातृभिः विशेषज्ञैः च सह पूर्णोपवेशनं करिष्यति। महिलानां आईसीसी 20-20 विश्वचषकक्रीडायां बर्मिंघम नगरस्य एजवेस्टन नगरे ग्रुपे क्रीडायां भारतेन पाकिस्तान दलं 64 धावनांकैः पराजितम् इति वार्ताः।